ग्रतमते भवनानामभिश्रजोर्वे प्रच्छेम दधुघे सुपेशसा द्यावा पृथिवे वरुडस्य धर्मणा विष्कभिते अजरे भोरिरेतसा असश्चन्दे भोरिदारे पजस्मदे घृतम् दुहाते सुकृतेषु च ऊरते राजन्ति अस्य भवनस्य रोदसी अस्मेरेतस्यञ्च दञ्जन्मनुर्हितम् यो वा मृजभे क्रमणाज रोदसी मर्तो ददाशधिषणे ससाधति प्रजाभिर्जाजते धर्मणः परि युवासिक्ता विषरोपाणि संव्रता घृते नद्या वा पृथिवी अभिवृते घृतश्रिजा घृत प्रजा घृतावृधा उर्वे पृथ्वेहो त्रवार्ये पुरोहिते ते इद्विप्रा ईळते सुम्नमिष्टये मधुनाद्या वा पृथिवे मिमिक्षता मधुश्चुता मधुदुघे मधूरते दधाने यज्ञम् द्रविणम् च देवता महिश्रभो वाजमस्मे सुवीर्यम् ऊर्जन् नाद्योश्च पृथिवे च बिन्वताम् पिता माता विश्वविदा सुदंससा सम्रराडे रोदसी विश्वशम् भवासनिम् वाजम् रजिमस्मे समिन्वताम्